एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अर्थ मन्त्रालयेन कोरोना क्षेम सुरक्षण वित्तम् दिनत्रयस्य अभ्यन्तरे एव प्रदातुम् क्षेम सुरक्षण समितिः निर्दिष्टा वर्तते। कोरोना क्षेम सुरक्षण वित्तम् सप्तानाम् दिनानाम् अभ्यन्तरे एव प्रदातुम् पूर्वम् प्रदत्तम् निर्देशनम् न क्रियान्वितमिति कारणम् प्रदर्श्य अर्थ मन्त्रालयेन दिनत्रयस्य अभ्यन्तरे एव कोरोना क्षेम सुरक्षणस्य वित्तम् प्रदाय एतद्विषयकम् ज्ञापनम् अर्थ मन्त्रालये प्रेषयितुम् क्षेम सुरक्षण समित्यै पुनः निर्देशनम् प्रदत्तम् वर्तते। सम्प्रति कस्मिन् क्षेम सुरक्षण संस्थाने कति संख्यायां सत्वज्ञापनात्मकं निवेदनं प्रस्तुतम् अस्ति तस्य विवरणं च प्रेषणीयमिति उल्लिखता अर्थमन्त्रालयेन समस्यायाः समाधानाय समित्या विहितस्य प्रयासस्य मन्त्रालयेन सहजीकरणाय विधातव्यस्य प्रयत्न विषयस्य च विवरणं च प्रेषयितुमपि निर्दिष्टम् वर्तते। त्रिभुवन विश्वविद्यालयेन स्थानीय स्तरै सह समन्वयं संस्थाप्य विद्यार्थिनां शिक्षकाणां च भौतिक्याम् उपस्थितौ एव नियमित कक्षा सञ्चालयितुं सर्वे महाविद्यालयाः निर्दिष्टाः सन्ति। स्थानीय स्तराणां समन्वयेन महाविद्यालयान् सञ्चालयितुं निर्दिष्टमिति त्रिभुवन विश्वविद्यालयस्य रजिष्ट्रार पदीयः डा पेशल दाहालः अज्ञापयत्। रजिष्ट्रार पदीयो दाहालः भौतिकोपस्थितिं कारयितुम् असमर्था महाविद्यालयाः वैकल्पिक विधिं प्रयुज्य नियमित कक्षाः सञ्चालयितुं निर्दिष्टाः सन्तीति समसूचयत्। एवमेव त्रिभुवन विश्वविद्यालयेन कोरोना विषाणोः संक्रमणेन अवरुद्धाः सर्वाः परीक्षाः अस्यैव मार्गमासस्य अष्टाविंशे दिवसे प्रारब्धाः इति ज्ञापितम् अस्ति। नेपाले ह्यस्तनावधि कोरोना विषाणुना संक्रमण मुक्तानां जनानां प्रतिशतं 0.792 प्राप्तास्ति। ह्य आराष्टं सहस्रद्वयेन 11% च जनैः कोरोना संक्रमणात् स्वास्थ्यलाभ प्राप्तेः अनन्तरं संक्रमणात् मुक्तानां जनानां समग्र संख्या 120,272 प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्य अतिरिक्तेषु 1,043 च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। आराष्टं विभिन्नासु प्रयोगशालासु 979 निदर्शनानां पीसीआर विधिना परीक्षणं विहितं सद् 90% पुरुषेषु 34.5% महिलासु च संक्रमणं पुष्टीभूतमिति मन्त्रालयो ज्ञापयति। एतदनु नेपाले ह्यस्तन दिवसावधि कोरोना विषाणुना संक्रान्तानां जनानां संख्या 137,99.5% प्राप्तास्ति। ह्य आराष्ट्रं कोरोना विषाणो 15,767 सक्रिय संक्रान्ताः जनाः सन्ति। कोरोना संक्रमणेन गतदिने 13 मृताः। नेपाले कोरोना संक्रमणेन मृतानां जनानां समग्र संख्या 1,50.5% प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं थाईल्याण्ड इजरायल बंगलादेश म्यान्मा देशानां राजदूतैः स्वस्वपदीय प्रमाणपत्राणि प्रस्तुतानि सन्ति। राष्ट्रपति भवने शीतलनिवासे पूर्वेद्युः आयोजिते विशेष समारोहे नेपालस्य कृते थाईल्याण्ड देशस्य राजदूतः भूषिता भोरासाफ, इजरायल देशस्य राजदूतः हनान गाडेर गोल्डबर्गर, बंगलादेशस्य राजदूतः सलाहुद्दीन नोमान चौधरी, म्यान्मा देशस्य राजदूतः सेन ओच स्वस्वपदीय प्रमाणपत्राणि प्रास्तुवन्। समारोहे परराष्ट्र मन्त्रिणः प्रदीप कुमार ग्यावालिनः, प्रधान सेनापतेः पूर्णचन्द्र थापाविधस्य च उपस्थितिः आसीत्। भौतिक पूर्वाधार यातायात मन्त्री वसन्त कुमार नेवाङ निगदति मन्त्रालये तुलनात्मक रूपेण गतवर्षतः उन्नत प्रगतिर्दृष्टा वर्तते। एतदीयार्थिक वर्षस्य प्रथम चातुर्मासिक प्रगति समीक्षायां मन्त्रालय स्तरीय विकास समस्या समाधान समितेः उपवेशे च ह्य मन्त्री नेवाङ मन्त्रालयान्तर्गतानां निकायानां कृते इदानीमेव सन्तोषानुभूतेः अवस्था नास्तीति चर्चयन् अवदत् इतोऽपि अधिकानि कार्याणि कर्तुं शक्यन्ते। मन्त्री नेवाङ अकथयत् विकास निर्माणयोः दृष्टासु समस्यासु गभीररूपेण अभिज्ञातासु सतीषु समाधानं तत्रैव मेलिष्यति। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः विकास निर्माणयोः कार्येषु अनावश्यकीं राजनीतिं न कृत्वा प्रतिस्पर्धितुम् अनुरुणद्धि। तनहु जनपदस्य व्यास नगरपालिकायाः प्रथम दशम वडा क्षेत्रयोः योजकं बुल्दीखोला नद्यां निर्मितं वज्रकृत सेतुं गतदिने उद्घाटयन् वरिष्ठ नेता पौडेलः अवोचत् विकास निर्माणयोः कृते कांग्रेस दलं सत्तायां न सदापि प्रतिबद्धं वर्तते। कार्यक्रमे कांग्रेस दलस्य केन्द्रीय सदस्याः शंकर भण्डारी, गोविन्द भट्टराई, प्रदीप पौडेलश्च विचारान् प्राकटयन्। सर्वोच्च न्यायालयेन नेपालस्य नाम्नः संघीय लोकतान्त्रिक गणतन्त्र नेपालस्य नेपालः इति नामकरणत्वेन मन्त्रिपरिषदा विहितस्य निर्णयस्य विषये लिखितोत्तरम् अभियाचितं वर्तते। न्यायाधीशस्य मीरा खड्गा विधायाः एकल न्यायपीठेन मन्त्रिपरिषदा विहितस्य एतद् विषयक निर्णयस्य कारणस्य सम्बन्धे पञ्चदशानां दिवसानाम् अभ्यन्तरे लिखितोत्तरं दातुं ह्य आदिष्टं वर्तते। सर्वकारस्य एतद् निर्णयस्य विरुद्धे अधिवक्त्रा सुब्बा श्रेष्ठेन विधिन्याय संसदीय विषय मन्त्रालयं विपक्षिणं निर्धार्य सर्वोच्च न्यायालये आदेशाभियाचन निवेदनं पञ्जीकारितम् आसीत्। न्यायालयेन पक्षद्वयमेव विमर्शनाय अस्य मार्गमासस्य 29 दिवसे आकारितं वर्तते। बर्दिया जनपदस्य मधुबन नगरपालिकायाः चतुर्थवडा क्षेत्रे ट्रिपर यान कार यानयोः परस्परं संघटितयोः शतोः जनद्वयं मृतमस्ति। चीसापानी स्थानात् शीलाम् आदाय गुलरिया स्थानं प्रति प्रस्थितं ट्रिपर यानं विपरीत दिशः आगच्छत् कारयानञ्च ह्य परस्परं संघटिते सति। गुलरिया नगरपालिकायाः चतुर्थवडा क्षेत्रस्य 25 वर्षीयः सुरेन्द्र गोडिया, कञ्चनपुरस्य 18 वर्षीया निधि सुनार च मृतौ इति जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः योगेन्द्र कुमार खड्गा ज्ञापयति। दुर्घटनायां जनत्रयं गभीरेण आहतं वर्तते। जुम्ला जनपदस्य सप्तसु स्थानीय स्तरेषु स्थापितेषु कोविड चिकित्सालयेषु चिकित्सकानाम् अभावात् समस्या सृष्टास्ति। चिकित्सकानां नियुक्तये वारद्वयं विज्ञापने विहितेऽपि निवेदन पञ्जीकरणार्थं कस्यापि उपस्थितेः अभावात् चिकित्सालयानां सञ्चालनाय समस्या सृष्टेति तत्रत्य स्थानीय स्तराणां प्रमुखैः ज्ञापितं वर्तते। कोविड चिकित्सालयानां निर्माणस्य अनन्तरं सञ्चालनाय पूर्वकार्यं विहितं सदपि विशेष चिकित्सकानाम् अभावेन समस्योद्भूतेति सिंजा ग्रामपालिकायाः अध्यक्ष देवल सिंह रावल अज्ञापयत्। अस्मिन्नेव वर्षे चतुर्षु राष्ट्रिय निकुञ्जेषु गण्डकानां गणना विधास्यते। गण्डकान् गणयितुम् 80 लाख रूप्यकाणि विनियोजितानि सन्तीति राष्ट्रिय निकुञ्ज वन्यजन्तु संरक्षण विभागस्य सूचनाधिकारी स्थितिकी विज्ञः हरिभद्र आचार्यः अवोचत्। पूर्वं नेपाले विहितानां क्षणनां गणना नाना मध्ये पश्चात्तन्य गणनया चितवन निकुञ्जे सर्वाधिकः 75% गण्डकः प्रदर्शिताः सन्ति। संसदीय समूहेन सिलगुडी चाराली अन्तर्देशीय शिला तैलीय नलिका विस्तारणस्य प्रथम प्रदेशे भण्डारण क्षमताया विस्तारणस्य च परियोजनानां क्रियान्वयनस्य विषये ज्ञातमस्ति। संघीय संसदा उद्योग वाणिज्य समुपभोक्तृ हित समितेः सभापतिना विमल श्रीवास्तवेन सहितेन समूहेन ह्यो नेपाल तैल निगमेन उच्च प्राथमिकतया क्रियान्वयने आनीतानां एतासां परियोजनानां क्रियान्वयने विहितानां प्रारम्भिक कार्याणां विषये अभिरुचिः व्यक्तास्ति। विद्युत गृहस्य यन्त्रे विकारोद्भवनमनु जुम्ला जनपद मुख्यालयस्य खलंगापणस्य स्थानीयाः दिवसत्रयात् विद्युतः उपभोगाद् वञ्चिताः सन्ति इति समाचाराः।